अस्तु, तर्हि नूतनविषयः आरभ्यते अद्य, यङन्तधातवः। अत्र आरभामहे, तर्हि शुकवनम तत्र आरब्धुमिच्छति वा?
हा, पठामि महोदय। यङन्तधातवः, यङन्तधातवः यङ् लुगन्तधातवः च समानार्थे भवन्ति, भेदः केवलं रूपे प्रक्रियायाश्च, कुत्रचित् प्रक्रियायाञ्च कुत्रचित् पर्यन्तं प्रक्रियासाम्यं वर्तते, ततः अग्रे महान् भेदः अपि अस्ति। अस्य पाठस्य आरम्भे यत्र साम्यम् अस्ति तत् प्रदर्श्यते, अनन्तरं प्रक्रिया भिन्ना कथमिति प्रतिपाद्यते इति। अत्र यङ् अन्तधातवः यङ् लुगन्तधातवः च समानार्थे भवन्ति, वयं पूर्वमेव दृष्टवन्तः क्रियासमभिहारे, धातोरेकाचो क्रियासमभिहारे यङ् इति। यदा वयं यङ् लुगन्तविषये पठितवन्तः तत्र एतदपि दृष्टं, पौनःपुण्यं पौनःपुण्यार्थे भवन्ति इति। यङ् धातवः यङ् लुगन्तदातवः द्वयमपि समानार्थे भवन्ति, केवलम् अनयोः मध्ये प्रक्रियाविषये भेदः अस्ति। यङ् लुक् यङ् लुगन्तधातोः विषये यङ् लुक् भवति, किन्तु यङन्तधातोः विषये यङ् तिष्ठति इति। अपि च कुत्रचित् पर्याप्तं, तयोः मध्ये प्रक्रियायां विषये साम्यं वर्तते, अग्रे तयोः प्रक्रियायां भिन्ना भवति, प्रक्रिया भिन्ना भवति इति।
हा, समीचीनमस्ति। अस्तु, ततः अग्रे यशोवर्धन अग्रे।
आं महोदय। पुनः स्मरणत्वेन वक्तव्यं, यङन्तधातूनां निर्माणावसरे आधातुकप्रक्रिया आश्रियते। आर्धातुकप्रक्रिया उच्यते यदा धातुभ्यः यः प्रत्ययः विधीयते सः आर्धातुकसंज्ञकः। इयम् आर्धातुकप्रक्रिया उपपद्यते स्थलेषु आतिदेशिकधातूनां साधनावसरे धातुभ्यः ये धातुप्रत्ययाः विधीयन्ते ते आर्धातुकसंज्ञकाः, यथा सन्, णिच्, यप् इति द्वादशधातुप्रत्ययाः। लकाराणां तिङन्तसाधनावसरे धातुभ्यः यः विकरणप्रत्ययः यथा लृटीस्य, अथवा यः तिङ्प्रत्ययः यथा आशीर्लिङ्गि यात् विधीयते सः आर्धातुकसंज्ञकः चेत्। कृदन्तसाधनावसरे धातुभ्यः यः कृत्प्रत्ययः विधीयते सः आर्धातुकसंज्ञकः चेत्। अतः आहत्य आर्धातुकप्रक्रिया घटिता आतिदेशिकधातुनिर्माणे, लकाराणां तिङन्तनिर्माणे, कृदन्तनिर्माणे च। अत्र यङन्तस्य आर्धातुकप्रक्रिया आतिदेशिकधातुनिर्माणम् एव। एकवारम् आतिदेशिकधातुः यदा सिद्धः, ततः अग्रे विशिष्टकार्यं नास्ति, यतोहि सर्वे यङन्तधातवः अदन्ताः, आत्मनेपदिनश्च। यगन्तेभ्यः शप् विधीयते, अतः भ्वादिगणे आत्मनेपदिधातुभ्यः रूपाणि यथा भवन्ति तथैव अत्रापि। यतः यङन्तधातुनिर्माणावसरे द्वितीयं भवति, अतः जुहोत्यादिगणस्य आत्मनेपदे सिद्धतिङ्गप्रत्ययः यथा तथा अत्रापि। आम्, अत्र किम् अस्ति महोदय, यत् यङन्तधातुनिर्माणम् आधातुकप्रक्रिया अस्ति। किमर्थम् आधातुकप्रक्रिया अस्ति? यतोहि यत् प्रत्ययः धातुभ्यः धातु यः प्रत्ययः धातुना यः प्रत्ययः युज्यते तत् सः प्रत्ययः आधातुकसंज्ञकः अस्ति। किमर्थं? यतोहि यङ् प्रत्ययः न तु शित् अस्ति न तिङ् अस्ति, अतः आधातुकप्रत्ययः अस्ति। अनन्तरं लिखितमस्ति यत् आधातुकप्रक्रियायाः त्रीणि प्रकाराणि सन्ति। प्रथमप्रकारः अस्ति यत् यदा आतिदेशिकधातूनां निर्माणं यदा भवति तदा आधातुकप्रक्रिया अस्ति। अत्र द्वादश प्रत्ययाः सन्ति ये आदिनिषिक्तधातुः निर्माणं कुर्वन्ति. यङ् अपि यङ् अपि एकः तादृशः प्रत्ययः अस्ति. अनन्तरं द्वितीयप्रकारम् अस्ति यत्र तिङ्गपदनिर्माणं तिङ्पदनिर्माणं यदा भवति तत्रापि तत्रापि यदि यदि विकरणप्रत्ययः षित् नास्ति अथवा
हरि ओम्
गतम् इति
हा हा अस्तु अन्य कोऽपि तत्र हेमा भगिनी वदतु कृपया.
श्रूयते वा महोदय?
हा इदानीम्
आम् क्षम्यतां. तत्र किमपि यदि विकरणप्रत्ययः यदि शित् नास्ति आर्धतुकप्रत्ययः अस्ति तदापि आघातुकप्रक्रिया भवति. अनन्तरे अपि तृदन्तनिर्माणमपि यदा अस्ति तदापि यदि प्रत्ययः आघातुकप्रत्ययः अस्ति तत्रापि आघातुकप्रत्ययः अस्ति. नाम यदि प्रत्ययः आर्धातुकसंज्ञकः तर्हि प्रक्रिया आर्धातुकप्रक्रिया. अनन्तरं लिखितमस्ति यत् यङन्त ये धातवः सन्ति ते सर्वे अदन्ताः सन्ति. एतत् वयं जानीमः. पदानि च आत्मनेपदिनश्च सन्ति. अतः अत्र तदनन्तरं यङन्तेभ्यः शप् विधीयते. अतः भ्वादिगणे आत्मनेपि धातुभ्यः ये रूपाणि सन्ति तथैव अत्रापि रूपाणि भवन्ति इति
अस्ति. अस्तु अग्रे हेमा भगिनी अग्रे.
अस्तु महोदय, अग्रे अस्ति यङन्तप्रक्रिया अनिडादिषु अन्यतमा. यङ् प्रत्ययः वलादिः नास्ति अतः आर्धधातुकस्येद्वलादेः इत्यस्य वशात् इडागमस्य अवसरः न भवति. प्रेरणार्थे निच् कर्मणि भावे यक् परस्मैपदे आशीर्लिङ् यङ् लुक् यङ् च इत्येते सर्वे अनिडादयः. क्रमेण येषां पाठः जायमानः. एतावता प्रेरणार्थे निच् कर्मणि भावे यक् परस्मैपदे आशीर्लिङ् यङ् लुक् इत्येते समाप्ताः सम्प्रति यङन्तप्रक्रिया. यङ् लुक् प्रथमं कारितं यतोहि तस्मिन् यङ् निमित्तीकृत्य अङ्गकार्यं नास्ति. यङि अङ्गकार्यस्य बाहुल्यम् इति कारणेन अधिकं जातिर्यं. तर्हि अन्यत् अस्ति अत्र अनिट् विषये इडागमस्य विषये यङन्तप्रक्रिया यत् वयं पश्यामः. क्षम्यता, यङन्तप्रक्रिया अपि श्रूयते वा महोदय?
आम्,
यङन्तप्रक्रिया अपि अनिडादिषु एकः अस्ति प्रक्रिया एका अस्ति. यङ् यतोहि वलादिः नास्ति ततः अतः अत्र आर्धधातुकस्य इड्वलादेः कारणेन अत्र इडागमः न भवति, तस्य परिधौ नास्ति इति कृत्वा. तथैव वयं पूर्वमपि दृष्टवन्तः पठितवन्तः प्रेरणार्थे निच् अपि च यक् प्रत्ययः यः कर्मणि भावे विधीयते आशीर्लिङ्ग् परस्मैपदीरूपे अपि च यङ्लुक् अपि अनिडादयः. इदानीं यङ् अपि तथैव अस्ति, तदपि इदानीं पश्यामः. परन्तु यदा यङ्लुक् वयं तत्र अङ्गकार्यं नास्ति इति कृत्वा तत्र जाटिल्यं नास्ति. परन्तु अत्र अङ्गकार्यं बहवः सन्ति इति किञ्चित् काठिन्यम् अस्ति अत्र इति.
हा, इति कृत्वा अन्तिमरूपमस्ति तत्र यङन्तरूपमिति अन्तिममस्ति यत्र आर्द्रदातकप्रक्रियायाम् इडागमस्य ज्ञानं नापेक्षितमस्ति. ततः अग्रे इडागमः इति प्रपञ्चः आगच्छति. अस्तु, समीचीनमस्ति. अग्रे अग्रे गच्छेम तर्हि गोपाल् महोदय
महोदय क्षम्यतां तत्र पूर्वस्मिन् परिच्छेदे सर्वे यङन्तधातवः आत्मनेपदिनश्च इति दत्तं तत्र किमपि सूत्रमस्ति वा तादृशरूपमेव भवति
अवश्यं अग्रे अग्रे प्रदर्श्यते केवलं परिचयः अस्ति
अस्तु महोदय यङ् प्रत्ययः केभ्यः धातुभ्यः विधीयते केषु च अर्थेषु द्वादशु धातुप्रत्ययेषु यङ् प्रत्ययः अन्यतमः वारं वारम् अथवा अधिकाधिकम् इत्यस्मिन् अर्थे भवति यथा निच् अपि च सन् अस्य यङ् प्रत्ययस्य धातुना संयोजनेन नूतनधातुः निर्मितः भवति तदा यगन्तधातुः इति वदामः यङ् प्रत्ययस्य किञ्चन वैशिष्ट्यम् अस्ति यत् तस्य लोपः अपि भवितुमर्हति यतः यङः लुक् भवति तत्र यङ् लुगन्तधातुः इत्युच्यते यगन्तानां यङ् लुगन्तानां च अर्थः समानः परन्तु रूपं भिद्यते आम् पूर्वमेव अस्माभिः दृष्टं द्वादशु स्थलेषु धातुप्रत्ययेषु द्वादशप्रत्ययाः सन्ति येन नूतनधातु आतिदेशधातु इति नूतनधातुः निर्मीयते तेषु यङ् अन्यतमः अस्ति अर्थः अस्ति वारं वारम् अथवा अधिकाधिकम् इत्यस्मिन् अर्थे यङ् अपि च यङ् लुगन्तधातुः अपि अस्माभिः पठितं निच् अपि च सन् यथा निच् अपि च सन् यङ् प्रत्ययस्य धातुनाय संयोजन नूतनधातुः आतिदेशिकधातुः इति नूतनधातुः निर्मितः भवति तन्नाम अस्ति यगन्तधातुः यङ् प्रत्ययस्य किञ्चन वैशिष्ट्यमस्ति कुत्रचित् यङ् यगन्त यङ् लुक् अपि भवितुमर्हति यदा लुक् भवति तत् तस्य नाम अस्ति यङ् लुगन्तधातुः अथवा यगन्तधातुः एव यद्यपि समानार्थः अस्ति परन्तु रूपभेदः अस्ति तदग्रे पश्यामः
हा अस्तु समीचीनमस्ति तर्हि अग्रे बालसुब्रह्मण्यं वदतु अग्रे
अग्रे यथा उदाहरणं दत्तः यथा पट् योग यङ् पापट्य इति यङन्तधातुः परं पट् योग यङ् पापट्य उपरि सदृशं तदनन्तरं यङ् लुक् पापट् इति यङ् लुगन्तधातुः पापट्य इति अदन्तधातुः पापट् इति हलन्तधातुः रूपं विद्यते किन्तु अर्थः समानः यङ्ः लटि पापट्यति यङ् लुगन्तस्य लटि पापट्टि उभयत्र वारं वारम् अथवा अधिकाधिकं पठति इति अर्थः स रूपाणि सन्ति यङ्गन्तधातु पापट्य पट्य इति साधारणधातोः यङ्गन्तधातुः पापट्य यङ् लुगन्तरूपं पापट् इति सो पापट्य यङ्गन्तधातुः सर्वदा अदन्तधातुः पापट् इति यङ् लुक् अन्तधातु पापट् हलन्तधातुः रूपं भिन्नं रूपं विद्यः अर्थः समानः एव उच्यते यङ् लटि रूपं पापट्यति यङ् यङ् लुगन्तस्य लटिरूपं पापट्टि इति उभयत्र वारं वारम् अथवा अधिकाधिकं पठति इत्यर्थः
आत्मनिपदे अस्ति पापच्यते इति लेखनीयमासीत्
अर्थरीत्या समानमेव रूपमेव भिन्नः
अस्तु सम्यक् अस्ति
महोदय. तर्हि
अस्तु महोदय पठतु कृपया.
तर्हि यङ् प्रत्ययस्य वारं वारम् अथवा अधिकाधिकम् इति समानः अर्थः. यङ् यङ् प्रत्ययः वारं वारम् अथवा अधिकाधिकम् इति सामान्यः अर्थः. व्याकरणे अस्य एव अर्थस्य व्यक्तीकरणार्थं क्रियासमभिहारः इति पदं भवति. अर्थस्य पूर्वं दृष्टक्रियाभिहारः. पौनःपुन्यं वृष अर्थश्च क्रियासमभिहारः इति. पौनःपुन्यं वृष अर्थस्य क्रियासमभिहारः इति. पश्यामः सम्प्रति द्रष्टव्यं कुत्र यङ् प्रत्ययः अस्मिन् सामान्यार्थे भवति, कुत्र च अपरस्मिन् विशिष्टार्थे भवति इति परिशीलयामः. पौनःपुन्यं वृषार्थश्च क्रियासमभिहारः इति.
हा अग्रे अग्रे अपि प्रदर्श्यते वारं वारं. हा अग्रे प्रदर्श्यते अग्रे प्रदर्श्यते. तत्र अर्थद्वयमस्ति. हा अर्थद्वयमस्ति. अत्र चन्द्रशेखरमहोदय अग्रे.
हा धातोरेकाचो हलादेः क्रियासमभिहारे यङ् इति सूत्रं. वारं वारम् अथवा अतिशयार्थे हलादि एकाच् धातुभ्यः यङ् प्रत्ययो भवति. पौनःपुण्ये वृषार्थे च द्योत्ये धातोरेकाचो हलादेर् यङ् स्यात्. एकाच् यस्मिन् सः एकाच् ब्रहुव्रीहिः तस्मात् एकाचः. हल् आदिर्यस्य सः हलादिः बहुव्रीहिः तस्मात् हलादेः. क्रियायाः समभिहारः क्रियासमभिहारः षष्टितत्पुरुषः. तस्मिन् क्रियासमभिहारे धातोः पञ्चम्यन्तम् एकाचः पञ्चम्यन्तं हलादेः पञ्चम्यन्तं क्रियासमभिहारे सप्तम्यन्तं यङ् प्रथमान्तम् अनेकपदमिदं सूत्रम्. प्रत्ययः परश्च इत्यनयोः अधिकारः. अनुवृत्तिसहितसूत्रम् एकाचः हलादेः धातोः यङ् प्रत्ययः परश्च क्रियासमभिहारे. तर्हि सूत्रम् एक धातोरेकाचो हलादेः क्रियासमभिहारे यङ् वदति वारं वारम् अथवा अतिशयार्थे हलादि अथवा एकाच् धातुभ्यः यङ् प्रत्ययः भवति. हलादि अथवा न हलादि एकाच् धातुभ्यः यङ् प्रत्ययः विधीयते. पौनःपुण्यम् इति पूर्वं यदि यथा दृष्टं पौनःपुण्य अथवा पुरुषार्थे भवति अर्थः.
पुरुषार्थः नाम
पुरुषार्थः नाम सन्तुष्टः वा पुनः एव
न अत्र भेदः. तत्र पौनःपुण्यमपि तत्र वारं वारम् अथवा अतिशयार्थे. अतिशयार्थे नाम वृषार्थे अधिकाधिकम्.
अस्तु अधिकाधिकम् इत्युक्ते नितराम् इति अर्थः वा?
नितरामिति न. पौनःपुण्यम् इत्युक्ते वारं वारं. किन्तु वारं वारं तत्र वारं वारमपि च अधिकाधिकम् इति भेदः खलु. नाम एकवारं द्विवारं त्रिवारं चतुर्वारं पञ्चवारम् इति तदेव समानकार्यं वारं वारं क्रियते चेत् वारं वारम् इति वदामः. किन्तु अधिकाधिकं तीव्ररूपेण अधिकाधिकमिति तत्र एकमस्ति गणनप्रसङ्गः, एकमस्ति तत्र शक्तिप्रसङ्गः.
अतिशयाते इत्युक्ते विविधानि कार्याणि इति वा अथवा परन्तु पौनः पुण्यमिति एकमेव कार्यं पुनः परन्तु पुनः पुनः परन्तु अतिशयार्थे अथवा अधिकाधिकम् इत्युक्ते भिन्नकार्याणि
न भिन्नकार्याणि न सन्ति द्रोणमहोदय किञ्चित् सहायं करोति वा
आम् अत्र यथा महोदयेन उक्तं प्रथमं तु तावत् यदि गणनासन्दर्भः भवति चेत् पुनः पुनः करोति इति अर्थः इदानीं जङ्गम्यते इति पठामः चेत् तस्यैव अपि अर्थद्वयं भवितुम् अर्हति प्रथमं तु तावत् तत्र वेगेन गच्छति तीव्रतया गच्छति इत्यर्थे तत्र तत् भवितुम् अर्हति अन्यच्च तत्र प्रतिदिनं गच्छति वा निरन्तरं पुनः पुनः गच्छति इति जङ्गम्यते तत्र अर्थद्वयं भवितुम् अर्हति इति मम अवगमनम् तीव्रता अपि अस्ति तर्हि एकः अर्थः अन्यच्च वारं वारं तत्र गमनं करोति गच्छति चेत् पुनः अन्यः अर्थः तस्यैव तत्र रूपस्य
इति कृत्वा अर्थद्वयमस्ति चन्द्रशेखरं तत् स्पष्टं वा
आं महोदय स्पष्टं
अस्तु तर्हि क्रियासमविहारः इत्यस्य अर्थः
क्रिया तत् तदेव वारं वारम् अथवा अधिकाधिकं
इति स्पष्टम्
आम्
महोदय यथा वयं तरप्तम वदामः तत्र अतिशयेन वदामः इति अधिकतया इति स्वीकर्तुं
सत्यं 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 अस्तु अग्रे गच्छेम विद्याभगिनी अग्रे
अनेन बोधो भवति यत् यङ्गः त्रीणि निमित्तानि विवक्षा क्रियासमविहारे भवेत् धातुः हलादिः भवेत् धातुः एकाच् भवेत् त्रिषु अन्यतमः नास्ति चेत् यङ् न भवति यथा जागृधातुः हलादिः किन्तु अनेकाच् अतः जागृधातोः यङ् प्रत्ययः न भवति ईक्ष् धातुः एकाच् किन्तु अजादिः अतः ईक्ष् धातोः यङ् प्रत्ययः न भवति परन्तु भूधातुः हलादिः अपि अस्ति एकाच् अपि अस्ति अतः भूधातोः यङ् प्रत्ययो भवति तर्हि अत्र यङ् प्रत्ययस्य विधानार्थं तत्र त्रीणि निमित्तानि सन्ति प्रथमं तत्र विवक्षा भवेत् अत्र वारं वारम् अथवा अधिकाधिकम् इत्यस्मिन् अर्थे भवेत् अपि च धातुः हलादिः भवेत् एकाच् अपि भवेत् तत्र यङ् प्रत्ययः विहितः भवति धातुतः यदि त्रिषु अन्यतमः नास्ति चेत् तत्र यङ् प्रत्ययः न विहितः भवति अत्र उदाहरणार्थं जागृ इति धातुः हलादिः अस्ति परन्तु अनेकाच् अतः तत्र जागृधातुतः यङ् प्रत्ययः न भवति ईक्ष् इति धातुः अजादिः एकाच् अस्ति अजादिः अस्ति इति कृत्वा तत्र यङ् प्रत्ययः न विहितः भवति भू इति धातुः अस्ति तत्र हलादिः अपि अस्ति एकाच् अपि अस्ति तर्हि तत्र विवक्षा वारं वारम् अथवा अधिकाधिकम् इत्यस्मिन् अर्थे तत्र भूधातुतः यङ् प्रत्ययः विहितः भवति
बहु समीचीनमस्ति
जागृ परन्तु हलादिः नास्ति किल महोदय
हलादिः जकारः आदौ
अनुबन्ध हलादिः सत्यं क्षम्यताम् आम् अन्ते दृष्टवती
अस्तु सम्यक् अस्ति तर्हि अग्रे अग्रे द्रोणमहोदय कृपया
शुचिसूत्री मूत्र तत्यर्थ्य शृणोतीनां यङ् वक्तव्यम् इति वार्तिकेन क्रियासमविहारे अर्थे शुचि सूत्री मूत्री इत्येभ्यः त्रिभ्यः अनिकात् धातुभ्यः च अट् ऋ अस् ऊर्णु इति चतुर्भ्यः अजादिधातुभ्यः यङ् प्रत्ययो भवति तर्हि तत्र धातुरेका तु हलादिः क्रियासमविहारे यम् इत्यनेन तत्र एकात् हलादि भवेत् तदैव तस्य तस्मात् धातोः यम् प्रत्ययः विहितो भवति परन्तु तत्र वार्तिकेन अत्र तत्र अन्यानि तत्र अन्ये अपि धातवः सन्ति सूचि तत्तु अनेकात् अस्ति सकारोत्पत्रि उकार सकारोत्तरव इकार सूत्रि मूत्रि इति अनेकात् धातुभ्यः अपि यङ् प्रत्ययः विहितो भवति अत्र वार्तिकबलात् तथैव अत्र अजादि न स्यात् इति सूत्रात् उक्तं, सूत्रेण उक्तं धातुरेकात् हलादेः अजादि न स्यात् हलादि स्यात् इति उक्तं। परन्तु अत्र पुनः अपवादरूपेण अट् ऋ अस् ऊरुणु इति अजादु अजादिधातुभ्यः अपि यं प्रत्ययो भवति इति वार्षिकबला तावदेव अभिप्रायः।
इति अस्ति, अस्तु समीचीनमस्ति। अग्रे अनन्तकृष्ण कृपया। हरि ओम्।
ग्राह्यः सः नास्ति इति मन्ये।
किम्
अनन्तकृष्णमहोदय?
अनन्तकृष्णमहोदय आसीत्,
न आसीत् इति मन्ये।
न, तस्य नाम मया श्रुतमासीत्।
अन्म्यूट् कर्तुम् इष्टवान् परन्तु
नास्ति चिन्ता।
नित्यं कौटिल्येकथौ गत्यर्थकदातुभ्यः कुटिलगमनार्थे एव यङ् प्रत्ययः भवति, क्रियासमभिहारार्थे न भवति। गतिवचनात् धातोः कौटिल्ये गमन गम्यमाने नित्यं यङ् प्रत्ययः भवति। नित्यं तृतीयान्तं क्रियाविशेषणं कौटिल्येसप्तमिनित्तं गतौ सप्तमिनित्तं सप्तमिनित्सूत्रम् धातो रेखाक्षोहलादेहारे यस्मात् धातोः यङ् इत्यनयोः अनुवृत्तिः अनुवृत्तिसंयुक्तं धातोः यङ् नित्यं कौटिल्ये गतौ। तत्र सूत्रं वदति पूर्वं सामान्यसूत्रमासीत् धातो रेखाक्षोहलादेहारे यङ् इति, तेन सूत्रेण धातु हलादि भवति एकादश भवति, एतादृशनियमाः उक्ताः तेन सूत्रेण। परन्तु अत्र अनन्तरं वार्तिका अस्ति सूचिसूत्रि इति, अनन्तरम् अत्र तत्र पूर्वं धातो एकादश क्रियासंहारे क्रियासंहारार्थे एव यङ् प्रत्ययः क्रियते इति पूर्वं, परन्तु अत्र सूत्रं भवति नित्यं कौटिल्ये गतौ इति सूत्रेण क्रियासमभिहारार्थः इति नियमः न भवेत् चेदपि कौटिल्यगमने कौटिल्यगमनार्थे कर्त्यर्थकदातूनां यङ् प्रत्ययः विधीयते इति सारांशः अत्र। धातोः यङ् नित्यं कौटिल्ये गतौ।
समीचीनमस्ति।
कौटिल्यगमनम् इत्युक्ते कुटिल्यगमनम्।
हा समीचीनमस्ति, इति वार्ता अस्ति। अस्तु तर्हि अग्रे पठेम इदानीम्। अस्तु महोदय, भवान् एव, यतोहि विषयः स एव।
मया पठनीयम् इति उक्तवान् वा भवान्?
आमामाम्।
अत्र प्रश्नः उदेति यत् गत्यर्थकदातवः प्रायः पञ्चाशदधिकत्रिशत गत्यर्थकदातवः सन्ति, ये दातवः गमनार्थे सन्ति ते सर्वे गत्यर्थकाः। अत्र ध्येयं यत् केचन गत्यर्थकधातवः अकर्मकाः, पुनः केचन सकर्मकाः, अनेन नित्यं कौटिल्ये गतौ इति सूत्रेण एते सर्वे गत्यर्थकधातवः अन्तर्भूताः। अपरस्मिन् प्रसङ्गे गत्यर्थकगत्यर्थकाकर्मश्लिषीताम् असव सजन दुह जीव्यादिभ्यश्च तेन गत्यर्थक अकर्मक धातुभ्यः तत्प्रत्ययः कर्प्रत्ययः अपि विद्यते। अत्र गत्यर्थकधातवः च अकर्मकधातवः च पृथक् कृत्वा उक्ताः इत्यस्मात् गत्यर्थे सकर्मकधातूनां पृथक्ता, अनेन सकर्मकगत्यर्थकधातुभ्यः कर्प्रत्यये तत्प्रत्ययः भवति। बालकः ग्रामगतः, अत्र स्वादौ दावु गाति श्रुतयोः इति अकर्मकदातु दाव् धातोः अकर्मकत्वात् कर्तृत्वे न भवति, किन्तु प्रकृते नित्यं कौटिल्ये गतौ इति सूत्रे सर्वेषां गत्यर्थकदातूनां गतम्। तत्र विषयः अस्ति नित्यं कौटिल्ये गतौ इति कीदृशगत्यर्थकदातूनां यङ् प्रत्ययः विधीयते इति प्रथमं। प्रायः पञ्चाशत् अधिकद्विशतं गत्यन्तकधातवः सन्ति सर्वेषां धातूनां यङ् विधीयते विधीयते वा अथवा केषाञ्चन धातूनामेव यङ् विधीयते वा इति प्रश्नः कृतः. तस्य उत्तरमस्ति एतेन सूत्रेण तत्र अस्माकं कृत् प्रत्ययः कदाचित् साधारणतया गतः तादृश सप्रत्ययः कर्मणि प्रयोगे एव भवति, परन्तु कर्तृत्वे अपि तादृशसप्रत्ययः विधीयते केषाञ्चनसन्दर्भेषु इति सूत्रं वदति. तत्र सूत्रेण सूचितमस्ति, तत्र सूत्रे उक्तमस्ति अकर्मक इति सूत्रमस्ति इत्यस्मात् कारणात् तत्र स्पष्टतया सूत्रे अकर्मकधातूनां न भवति, सकर्मकाणाम् एव भवति इति सूत्रेण स्पष्टतया उक्तम् इत्यस्मात् कारणात् तत्र विभजनं सम्यक्तया कृतं. परन्तु नित्यं कौटिल्ये गतौ इत्यनेन सूत्रेण तादृशविभजनं न कृतम् इत्यस्मात् कारणात् सर्वेषां गत्यर्थकानां धातूनां ग्रहणं भवति, सर्वेषां यङ् विधीयते इति अस्माभिः आरोपति.
अत्र अत्र किञ्चित् समीकरणमस्ति इति भाति. वस्तुतः तत्र गत्यार्थे अकर्म पृथक् नाम गत्यार्थकानाम् अकर्मकानाम् अपि तत्र कर्त्रार्थिकप्रत्ययः भवति. धावधातोः कर्त्रार्थे भवति किन्तु गत्यार्थकः इति कारणतः न, अपि तु अकर्मकत्वात् इति कृत्वा अत्र कृतप्रदयः कर्त्रार्थे कृतप्रदयः भवति तत्रापि, किन्तु गत्यार्थकः गत्यार्थकत्वात् न अपि तु अकर्मकत्वात् इति कृत्वा भेदः कृतः अस्ति. उभयत्र भवति, उभयत्र भवति, स्पष्टं स्यात्. नाम तत्र शिक्षा समीचीना अस्ति, तत्र केवलम् अत्र समीकरणं
इदानीम् अवगतं. तत्र दाव् धातुः यद्यपि गत्यर्थकधातुः अस्ति परन्तु तस्य अकर्मकत्वात् सप्रत्ययः न विधीयते इति अस्माभिः
न विधीयते इति नास्ति. नाम अत्र कस्मिन् अर्थे कृतप्रत्ययः सामान्यमस्ति, अस्माकं सामान्य अवगमनमस्ति यत् कृतप्रत्ययः कर्मणि अर्थे मया कार्यं कृतम् इत्यादिकं, तव तु कर्तृ अर्थे अस्ति, अहं कार्यं कृतवान्, मया कार्यं कृतम् इति सामान्यबोधः. किन्तु अनेन सूत्रेण कर्तृर्थे कृतप्रत्ययस्य उपयोगः कर्तृर्थे अपि भवति. गत्यार्थकानाम् अकर्मकानां एतेषां सर्वेषां तत्र कर्तृर्थे कृतप्रत्ययः विधीयते. अत्र द्वयोः अपि नाम गत्यार्थकानाम् अकर्मकाणाम् इदानीम् उपरितनसूत्रेण तत्र नित्यं कौटिल्ये गतौ धावधातोः अन्तर्भावः अस्ति, नाम अस्मिन् अन्तर्भवति यद्यपि अकर्मकधातुः अस्ति. अत्र गत्यार्थकर्म इति सूत्रेण दीर्घसूत्रेण अत्र गत्यार्थकाणामपि अकर्मकाणामपि कृतप्रत्ययः कर्तृर्थे विधीयते. अत्र धावधातुः यद्यपि उपरितनसूत्रेण तत्र नित्यं कौटिल्ये गतौ इति सूत्रेण गत्यार्थकः इति मत्वा अस्मिन् एव अर्थे धावधातोः अपि न केवलं सकर्मकधातूनाम् अकर्मकधातूनां तत्र गत्यार्थकत्वं मन्यते अत्र, किन्तु दीर्घसूत्रेण अधस्तनं तत्र धावधातुः गत्यार्थकत्वात् कर्त्रार्थे न अपि तु अकर्मकत्वात् किन्तु भवति, कर्त्रार्थे भवति. यथा उपविशति, अहम् उपविष्टवान् अहम् उपविष्टः, अहं नाम क्तवतु, न केवलं क्तवतु, अकर्मकाणां क्तप्रत्ययः कर्तृर्थे अपि भवति, क्तवतु इति प्रत्ययनमपि कर्तृर्थे भवति, क्तवतु इत्येषां तु भवत्येव. अत्र अत्र अहम् उपविष्टः अस्मि, अहम् उपविष्टवान्, अहम् उपविष्टः, मया उपविष्टं, तत्र भावे अपि भवति, तत्र कर्त्रे अपि कर्तृर्थे अपि अस्ति खलु. तत्र कर्त्रार्थे किमर्थमिति चेत् अकर्मकधातुः अस्ति इति कृत्वा अनेन सूत्रेण कर्त्रार्थे उपसर्गः विष्टातोः उपयोगः भवति. धाव् धातुः अपि तथा, किन्तु यथा गम् धातुः, गम् धातुः अहं विद्यालयं गतः इति किमर्थम् इति चेत् गम् धातुः गत्यार्थकः इति कृत्वा कर्त्रार्थे गम् धातुतः क्तप्रत्ययः विधीयते. धाव् धातुः यद्यपि विधीयते कर्त्रार्थे, किन्तु सकर्मकत्वात् न, गत्यार्थकत्वात् न, अपि तु अकर्मकत्वात् इति.
अहं धावितः अस्मि इति शक्यते, ततः परन्तु तस्य कथं प्राप्तिः इत्युक्ते अकर्मकत्वात् प्राप्तिः, न तु गत्यत्वात्
इति समीचीनम् इति एव. तावान् एव भेदः
महोदय.
आम्
तर्हि अत्र श्ली शीङ् स्ता एते अपि अकर्मकदातवः एव, तर्हि पुनः तत्र अकर्मकः अकर्मक इति किमर्थं?
स्था धातुः तिष्ठति, सत्यं, हा तत्तु द्रष्टव्यमस्ति, न जाने, तत्तु द्रष्टव्यमस्ति, तत् तस्य कारणम् अवश्यमस्ति, तत् किञ्चित् इतोपि द्रष्टव्यमस्ति. कर्मकाणां सिंह सत्यं भगिनि, प्रश्नः उचितः अस्ति, योग्यः प्रश्नः, दृढमादवात् ज्ञायते वा?
आं महोदय, प्रश्नः ज्ञायते, परन्तु द्रष्टव्यं किमर्थम्?
आमामां, द्रष्टव्यमस्ति, तस्य कारणम् अवश्यमस्ति खलु, नाम तत्र विद्याभगिनी तस्य कारणम् अस्ति, तत् तत्तु ज्ञात्वा एतत् सर्वं कृतमस्ति, किन्तु किञ्चित् इतोपि द्रष्टव्यमस्ति.
तर्हि अत्र अकर्मक इति विशेषणं नास्ति वा? श्लीश् शीङ् स्था आस् इति नास्ति, परन्तु सर्वेषाम् अकर्मकाणाम् अत्र ग्रहणम् इति वा?
अवश्यम्
अस्तु,
तदा खलु धाव् धातोः तत्र कार्यमस्ति, अत्र धाव् धातोः उदाहरणं दत्तमस्ति. नाम विश् धातुः अपि नास्ति उपविष्टः, अहम् उपविष्टः अत्र नास्ति, सर्वेषाम् अकर्मकाणां, किन्तु एते धातवः पृथक्तया उक्ताः इति किमर्थं द्रष्टव्यमस्ति, द्रष्टव्यमस्ति किञ्चित्
फलमस्ति यत् सर्व अकर्मकधातूनां कर्तृर्थे अपि क्तप्रत्ययस्य प्रयोगः उचितः अस्ति.
न श्रुतं सम्यक्तया, तत् प्रश्नः वा कथनं वा भवतः?
कथनमस्ति यत् धातुः अकर्मक अस्ति चेत् गत्यर्थक अकर्मक अस्ति चेत् कर्तृर्थे अपि क्तप्रत्ययस्य प्रयोगः उचितः अस्ति इति खलु?
गत्यार्थकः अपि अकर्मकः अपि इति न, पृथक्तया उक्तमस्ति, अकर्मकः न चेत् नास्ति चेदपि गत्यार्थकः अस्ति चेत् भवति कर्त्रार्थे, गत्यार्थके नास्ति चेत् अकर्मकः अस्ति चेत् तत्र कर्त्रार्थे भवति. हा, किन्तु एतेषां धातूनां तत्र पृथक्तया कथनमिति किमर्थम् इति द्रष्टव्यमस्ति अवश्यं. हा अस्तु, अग्रे गच्छेम.
महोदय, लुप सद चर जप झब दह दश ग्रीभ्यो भावगर्हायां, लुप सद चर जप झब दह दश ग्री इति धातुभ्यः क्रियायाः भावगर्हार्थे एव यङ् प्रत्ययो भवति, अपरेषु अर्थेषु न भवति. लुपश्च सदश्च चरश्च जपश्च जभश्च दहश्च दशश्च ग्री च तेषाम् इतरेत्वरद्वन्द्वः, लुपसदचर जप झब दह श षगारः तेभ्यः लुपसदचर जप जप दह दशाग्रिभ्यः भावस्य गर्ह भावगर्ह तस्यायां भावगर्हायां लुपसदचर जप भद हद षग्रिभ्यः पञ्चम्यन्तं भावगर्हायां सप्तम् यन्तं द्विपदमिदं सूत्रं नित्यं कौटिल्य नित्यं कौटिल्ये गतौ इत्यस्मात् एव पारार्थकं नित्यम् इत्यस्य अनुवृत्तिः धातोरेकाचो हवादेः क्रियासमविहारे यङ् इत्यस्मात् यङ् इत्यस्य अनुवृत्तिः भावशब्देन क्रियासङ्केतः क्रियायाः निन्दा अर्थात् असमीचीनरीत्या क्रिया सम्पन्ना इत्यस्मिन्नर्थे भावगर्हा उपयुज्यते अनुवृत्तिसहितसूत्रं लुप सद चर जप झभ दह दशाग्रीभ्यो यङः नित्यं भावगर्हायाम् अत्र सूत्रं वदति यङ् धातुभ्यः कुत्र भावगर्हार्थे प्रत्ययः विधीयते इति अत्र धातोः धातु अस्ति लुप सदचर इति लुप सदचर जप झब दह दश गृ एते सर्वेषां धातूनां यङन्तः विधीयते भावगर्हार्थे इति सन्दर्भे अन्यत्र अर्थे न इति यङ् न विधीयते.
अत्र उदाहरणमस्ति
चर् योगः यङ् चञ्चूर्य इति यङन्तधातोः अर्थः निन्दितरूपेण चलनं यत्र निन्दितरूपेण चलनं भवति तत्र चर् यदा धातुः यङ् विधीयते चञ्चूर्य इति पदं भवति. गर्हितं चरति चञ्चूर्यते गर्हितं लुम्पति लोलुप्यते. महोदय लुम्प्यति इति किं लुम्पति इति किं
लुम्पति इति इदानीं न स्मरामि. अत्र महत्त्वं नास्ति, वदतु कः अर्थः अस्ति चर् इत्यस्य.
अच्छा चर् इति यदा यङ् वयं विधीय यदा प्रत्ययः विधीयते तत्र निन्दितरूपेण चलनं यदा यत्र चलनं भवति निन्दितं भवति तत्र चञ्चुर्य इति पदम् अर्थं भवति. यदा गर्हितं चरति इति यदा वयम् उपयुज्यामः तत्र चञ्चूर्यते इति पदं भवति.
नाम सम्यक् रूपेण न निन्दितरूपेण
निन्दितरूपेण
हा लुम्पति लुम्पति इति आक्रमणं करोति इति एकः अर्थः, बहवः अर्थाः सन्ति इति भाति आक्रमणम्. अपि च भवतु नाम बहवः अर्थाः सन्ति अस्तु अग्रे सर्वे पठितवन्तः खलु तावत् अन्य कोऽपि अस्तु आरम्भतः शुकवान् वा तत्र कृपया.
आम् तर्हि यङ् प्रत्ययः कुत्र कुत्र भवति इति चेत् चतुर्णां सूत्राणां वार्तिकानां च मिलित्वा अर्थः एवम्. अजादिधातुषु अट् ऋ अश् ऊर्ण् इत्येभ्यः एव यङ् भवति, अवशिष्टेभ्यः अजादिधातुभ्यः यङ् न भवति. हलादिधातवः द्विविधाः, अनेकाचः एकाचः च. अनेकाच् धातुषु केवलं सूची सूत्री मूत्री इत्येभ्यः त्रिभ्यः यङ् भवति, अवशिष्टेभ्यः हलादिधातुभ्यः यङ् न भवति. सर्वे निजन्ताः सनन्ताः च धातवः अनेकाचः, अतः तेभ्यः यङ् न भवति. चुरादिगणे यावन्तः धातवः ते सर्वे अनेकाचः, अतः तेभ्यः अपि यङ् न भवति. विधि विवि दरिद्रा जागृ चकास इत्यादिभ्यः अपि यङ् न भवति पट् वद् मुद् बुध् इत्यादिभ्यः सर्वेभ्यः एकाच् हलादिधातुभ्यः यङ् प्रत्ययो भवति इति अत्र समग्ररूपेण यङ् कुत्र कुत्र विधीयते इति दत्तमस्ति. सामान्यरीत्या अजादिधातुषु यङ् न विधीयते किन्तु अट् ऋ अश् ऊर्णु इत्येभ्यः धातुभ्यः यङ् भवति. अपि च सामान्यरीत्या हलादि धातुः अस्ति चेत् अपि च एकाच् अस्ति चेत् तत्र यङ् विधीयते किन्तु सूची सूत्री मूत्री इत्येभ्यः त्रिभ्यः धातुभ्यः यद्यपि एकाच् नास्ति अनेकाच् ते अनेकाच् सन्ति तथापि तेषु यङ् विधीयते. अपि च निजन्ताः सनन्ताः च धातवः अनेकाचः तत्र निजन्ता तत्र ईकारः अस्ति ईकारः एव तिष्ठति सन् तत्रापि स्वरः अस्ति इति कृत्वा तेषां योजनेन अनेकाच् नूतनधातुः एव भवति इति कृत्वा तेषु यङ् न भवति. पुनः चुरादिगणे चुरादिगणीयधातवः धातूनां धातुषु अपि यङ् न विधीयते. अपि च दीधि वेवि दरिद्रा जागृ चकास् इत्यादिभ्यः धातुषु यङ् न भवति. साधारणरीत्या पट् वद् मुद् बुद्ध् इति हलादिः अस्ति अपि च एकाच् अस्ति इति कृत्वा तेषु यङ् विधीयते.
महोदय एकः प्रश्नः अस्ति, अत्र हलादिधातवः द्विविधाः अत्र लिखितमस्ति, अतः अग्रे यत् 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 अस्ति तत्र लिखितमस्ति खलु अनेकात् धातुषु केवलं सूची सूत्री मूत्री इत्येभ्यः त्रिभ्यः यङ् भवति, तदनन्तरम् अवशिष्टेभ्यः अनेकात् हलादिभ्यः धातुभ्यः यङ् न भवति खलु.
अवशिष्टेभ्यः नाम अत्र अनेकात् धातुषु, हा तत्र अनेकाच् धातुषु इति विषयः उक्तमस्ति, तत्र स्पष्टं नास्ति पुनः नास्ति चेत् पुनः वक्तुं शक्यते. अत्र अत्र अपि प्रायः मम आसीत् यत् अनेकाच् धातुषु केवलं त्रिभ्यः अवशिष्टेभ्यः अनेकाच् धातुभ्यः न विधीयते इति तत्र अन्वयः मया न तत्र इष्टः. स्पष्टं नास्ति वा? नास्ति चेत् पुनः वक्तुं शक्यते. संयोजयितुं शक्यते अनेकाच् धातुषु केवलम् अवशिष्टेभ्यः हलादिधातुभ्यः नाम अनेकाच् हलादि इति अस्तु संयोजयिष्यामि अग्रे. अस्तु
यङन्तस्य धातुसंज्ञा. धातुभ्यः यदा हि यङ् प्रत्ययः विधीयते तदा हि धातुसंज्ञा भवति. अनन्तरं यङ्गः लुकि सत्यपि प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन धातुसंज्ञा तिष्ठति एव. नाम अत्र महोदयम् अस्ति यत् यदा यङ् प्रत्ययः विधीयते तदैव धातु नवधातु निर्माणं भवति, नवधातुसंज्ञा भवति, तदनन्तरं लोपः अपि भवति चेत् धातुसंज्ञा तिष्ठति एव यतोहि प्रत्ययलोपे प्रत्ययलक्षणम्. तत् सूत्रमस्ति महोदय, सनाद्यन्ता धातवः तत्र किं वदति यत् गुप्तिज् किद्भ्यः सन् इत्यस्य सन् इत्यारभ्य कर्मणिङ्गः कर्म कमेर्णिङ्गः इत्यस्य निङ् इत्यन्तं द्वादशप्रत्ययाः येषाम् अन्ते भवन्ति तेषां धातुसंज्ञा स्यात्. द्वादशप्रत्ययाः एते सन् क्यच् आदौ येषां ते सनादयः, सनादयः अन्ते येषां ते सनाद्यन्ताः। सनाद्यन्तः प्रथमान्तं धातः प्रथमान्तं त्रिपदमिदं सूत्रं, सूत्रं स्वयं सम्पूर्णं, सनाद्यन्तः धातवः नाम अत्र गुप्तिच्किद्यः सन् इति अत्यस्य सन् इत्यारभ्य अमेरणिङ्गः इत्यस्य निङ् प्रत्ययान्तम् अनप्रत्यन्तं द्वादशप्रत्ययाः सन्ति। तत् 3132 सूत्रं सनाद्यन्ता धातवः वदति यत् यदा ये प्रत्ययाः धातोः अनन्तरं युज्यन्ते तदा धातुसंज्ञा भवति इति। द्वादशप्रत्ययाः सन्ति सन् चच् काम्यच् क्यश् क्यङ् क्विप् निङ् इयङ् निच् यक् आय यङ् अत्र यङ् अपि अस्ति अन्यतमः, अतः यङ् प्रत्ययः अपि यदा युज्यते तदा धातुसंज्ञा भवति। अत्र एकवारं यदा धातुसंज्ञा सिद्धा तदा
एकनिमेषः अत्र वक्तव्यमस्ति यत् येषाम् अन्ते भवन्ति तेषां धातुसंज्ञा भवति, तत्र येषां धातूनाम् अन्ते इति न उक्तमस्ति, न वक्तव्यमपि, यतोहि तत्र नामधातवः तत्र प्रातिपदिकेभ्यः अपि एते विधीयन्ते। येषाम् अन्ते इति ज्ञात्वा उक्तमस्ति, येषाम् अन्ते, येषां धातूनाम् अन्ते इति नास्ति, केवलं धातूनाम् अन्ते भवन्ति तेषां धातुसंज्ञा इति नास्ति इति कारणतः। बुद्धं
सन् क्यच् काम्यच् इति प्रत्ययः प्रातिपदिकेभ्यः प्रातिपदिकेभ्यः अपि युज्यन्ते वा?
हा, कुत्रचित् एतत् सर्वम् अस्माभिः न अधीतं कुत्र भवति, किन्तु कुत्रचित् भवति, केवलं धातुभ्यः विधीयते इति नास्ति।
ओ अस्तु, केनपि युज्यते तस्य धातुसंज्ञा भवति इति
खलु? हा, सामान्यतया सामान्यरूपेण वक्तव्यमस्ति, यतोहि कुत्रचित् प्रातिपदिकेभ्यः अपि विधीयन्ते इति अस्ति। अस्तु, अग्रे द्रोणमहोदय पठति वा?
एकवारं यदा धातुसंज्ञा सिद्धा तदा तस्मात् धातोः कस्यापि लकारस्य तिङ् प्रत्ययः अथवा कोऽपि कृत् प्रत्ययः संयोजयितुं शक्यते, यया रीत्या अन्येभ्यः धातुभ्यः प्रत्ययाः विधीयन्ते। किन्तु ध्येयं यत् अनुदात्तेत् ञित्स धातुभ्यः केवलम् आत्मनिपदप्रत्ययाः विधीयन्ते। इदानीं सनाद्यन्ता धातवः इति सूत्रबलात् धातुसंज्ञा सिद्धा, धातुसंज्ञा प्राप्तम् इदानीं सिद्धा, तस्तत् धातुसंज्ञा यदा प्राप्यते तदा तस्य यस्य कस्यापि लकारस्य लट् लोट् लङ् इत्यादि लकारस्य लकाराणां तिङ् प्रत्ययः अथवा कृत् प्रत्ययः कुतः इति चेत् धातुसंज्ञा इदानीं प्राप्ता, कृत् प्रत्ययः संयोजितुं शक्यते, यया रीत्या अन्येभ्यः धातुभ्यः यया रीत्या तत्र अनतिदेशिकः देशिकेभ्यः धातुभ्यः यथा प्रत्ययाः विहिताः भवन्ति तथैव आतिदेशिकाः आतिदेशिकेभ्यः धातुभ्यः अपि तत्र प्रत्ययाः विधीयन्ते। किन्तु ध्येयं यत् परन्तु तत्र लकारस्य विषये किञ्चित् तत्र अवधानम् आवश्यकं, ध्येयं यत् अनुदात्त इत् ञित् च धातुभ्यः केवलम् आत्मनिपदप्रत्ययाः विधीयन्ते, नाम लकारस्य स्थाने तिङ् प्रत्ययाः विधीयन्ते इति उक्तं, परन्तु तत्र तिङ् प्रत्ययेषु अपि तत्र अनुदात्त इत् ञित्स धातुभ्यः केवलं तत्र आत्मनिपदप्रत्ययः एव विधीयन्ते, न तु परस्मैपदिप्रत्ययः इति अर्थः।
सूत्रमस्ति
अनुदात्तञित आत्मनिपदं, यस्य धातोः अनुदात्तस्वरस्य नकारस्य च इत्संज्ञा भवति सः धातुः आत्मनिपदि, अनुदात्तश्च न च अनुदात्तनौ तौ इतौ यस्य सः अनुदात्तञित् द्वन्द्वगर्भ बहुव्रीहिः तस्मात् अनुदात्तमितः अनुदात्तमितः पञ्चम्यन्तम् आत्मनिपदं प्रथमान्तं द्विपदमिदं सूत्रं भुवादयो धातोः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः टीकाकाराः सूचयन्ति यत् लस्य इति पदम् आयाति आक्षेपेण यतोहि तस्य अर्थः निहितः आत्मनिपदम् इत्यस्मिन् अनुवृत्तिसहितसूत्रम् अनुदात्तमितः धातोः लस्य आत्मनिपदं नाम तत्र यदा तत्र इत्संज्ञादिकं कृत्वा यः कोऽपि तत्र स्वरवर्ण अस्ति तस्य निष्कासनानन्तरं तत्र धातोः विद्यमानः यः तत्र अस्वरण अस्ति तद् अनुदात्तः भवति चेत् अथवा तत् धातु यदि ङित् अस्ति चेत् नाम तत् तस्य ङित् इत् ङकार इत् अस्ति चेत् द्वयोः तत्र लकारस्य स्थाने लस्य आत्मनिपदप्रत्ययाः एव भवन्ति न तु परस्मैपद प्रत्ययाः इति अर्थः अत्र तत्र यङ् इति तत्र यङन्तस्य यङ् इति प्रत्ययस्य संयोजनेन यङ् तत्र नकार इति भवति तत्र अतः सः धातु नकार इत् धातु अस्ति इति कृत्वा तत्र अनुदात्तमित आत्मनिपदमिति इत्यस्य सूत्रस्य प्रसक्तिः अतः तत्र यङन्तधातुभ्यः केवलम् आत्मनिपदप्रत्ययः एव विधीयते इति अभिप्रायः
तदेव अस्ति समीचीनमस्ति महोदय गोपालमहोदय अग्रे
महोदय एकः प्रश्नः अस्ति महोदय धातोः यः स्वरः अस्ति तत् अनुदात्तः भवतु इति परन्तु यत्र यदि अनेकाचः अस्ति चेत् किं भवति तत्र महोदय सर्वे अनुदात्तः यदि धातुः अनेकाच अस्ति चेत् तत्र अनुदात्तस्वरः इति सर्वे स्वराः अनुदात्तः भवति वा
न न तत्र चिह्नम् अस्ति तत्र धातुविज्ञानपाठे प्रतिपादितमस्ति तत्र धातुपाठः तत्र विशिष्टचिह्नाः भवन्ति तत्र यः कोऽपि यावन्तः स्वराः इति भवतु नाम किन्तु तस्य चिह्नं दृष्ट्वा निर्णयः भवति
तर्हि अनेकाच् अस्ति चेत् एकः एव एकः अपि अनुदात्तः भवति चेत् तत्र अनुदात्तः इति वदामः वा
सत्यम् अनुदात्तञित् अनुदात्तञित् केवलम् अनुदात्तः स्वरः इति पर्याप्तमिति नास्ति तत्र अनुदात्तः यस्य इङित् तत्र द्वैविध्यमस्ति अनुदात्तस्वरः
अनुदात्तः अपि
अनुदात्तः अपि च ङित् इत्संज्ञकः नाम तत्र अनुनासिकः
नाम उभौ अपि उभौ अपि भवति अथवा
तत्र केवलम् अनुदात्तः न तत्र यः स्वरः अनुदात्तः संज्ञकः स च इत् संज्ञकः न क्षम्यताम् अनुदात्तेत् ङित् इति पृथक्तया अस्ति भोः ङित् इति पृथक् ङित् संज्ञकः अथवा अनुदात्तेत्
अथवा
नाम यथा किं लिखितमस्ति यस्य धातोः अनुदात्तस्वरस्य ङकारस्य च इत्संज्ञा भवति द्वयमपि अपेक्षितमिति नास्ति किन्तु अनेकाच् धातुः इति भवतु नाम तत्र कश्चन एकः स्वरः अनुदात्तः इत्संज्ञकः च स्यात् इति चेत् तत्र आत्मनेपदी
महोदय प्रायः पुनः पृच्छामि क्षम्यतामतः परन्तु यङ् लुङ्कन्त यदा भवति तत्र अपि ङित् अस्ति खलु
न न न तत्र धातुः ङित् स्यात् किं
न अहं यङ् लुगन्तधातुः यत् अस्ति यद्यपि धातुः लुक् अस्ति परन्तु प्रत्ययलोपे प्रत्ययलक्षणम् इति कारणेन ङित् अस्ति वा
ओ तत्र क्षम्यतां तत्र यङ् लुक् विषये पृच्छति वा
प्रायः पुनः पृच्छामि परन्तु अधुना स्मरामि
पृष्टवान् तेषु दिनेषु भवान् पृष्टवान् इति स्मरामि
अहं पुनः पठामि तत् करपत्रं
हा नाम किमर्थं यङ् तत्र तत्र प्रत्ययलक्षणम् इति कृत्वा यङ् नुगन्तधातुः अपि ङ्यत् इति प्रश्नः?
आमाम् इति प्रश्नः अस्ति. प्रायः अस्य विषये अस्माकं चर्चा जाता.
चर्चा जाता आसीत्, इदानीं तस्य उत्तरं न स्मरामि. यतोहि एकस्मिन् समये एकः एव वदतु, अत्र कः वदति, द्रोणमहोदय वदति वा?
तत्र न लुमताङ्गस्य इति आसीत्, प्रत्ययलोपे प्रत्ययलक्षणं न लुमताङ्गस्य, तर्हि अत्र लुक् इति अस्ति लुमत् इति कृत्वा तत् निमित्तीकृत्य कार्यं न भवति इति किमपि आसीत्.
अत्र अङ्गकार्यं किमपि नास्ति खलु, अत्र अङ्गस्य कार्यं न अस्ति.
लुमताङ्गस्य तत्र हा लुमताङ्गस्य इति यदा अङ्गकार्यम् अङ्गकार्यप्रसङ्गः, यतोहि अङ्गकार्यं नास्ति अतः प्रत्ययलक्षणं स्यात्. अहमपि पृष्टवान् मातरं तावत् अहं स्मरामि, भवान् यदा पृष्टवान् अग्रिमे दिने अहं मातरमपि पृष्टवान्, किन्तु उत्तरम् इदानीं मनसि नास्ति.
पुनः
अधिप्रभुतिपः इति उक्तवन्तः.
मया किम् उक्तमासीत्?
अत्र करपत्रे लिखितमस्ति अधिप्रभृतिभ्यः शपः इत्यनेन, तत्र लुक् अस्ति, यङ्ग् लुक् अस्ति खलु, तदर्थं तद् अदादिगणः इव भवति, तत्र परस्मैपदिदातु परस्मैपदीरूपं भवति इति.
न न न अदादिकाः तत्र यङ् लुगन्तदातवः अदादिकाः इति पृथक् विषयः अस्ति, नाम तत्र शपः लुग् भवति इति पृथक् विषयः अस्ति. किन्तु तत्र आत्मनिपदिदातुः आत्मनिपदिदातुः अथवा परस्मैपदिदातुः इति भिन्नविषयः खलु. अत्र आदातिकः केवलं शपः लुग् भवति इति प्रसङ्गः. ङित्वं भवति न वा तत्र ङित्वमिति कृत्वा आत्मनिपदि संज्ञकः तत् तिङ्प्रत्ययाः एव विधीयन्ते इति भिन्नविषयः अस्ति. पुनः पृच्छामि, पुनः पृच्छति किमर्थं पृच्छामि,
पठामि
अहमपि. तत्र लभ्यते चेत् सूचयतु कृपया, यतोहि
करपत्रे नास्ति महोदय.
नास्ति हा हा अस्तु, पुनः पृच्छामि. अहं पृष्टवान् तावत् अहं तत्र मम मनसि अस्ति तस्याः कथञ्चित् क्रोधः आगतः प्रश्नं श्रुत्वा, किन्तु पुनः पृच्छामि.
महोदय करपत्रे अस्ति, अत्र अस्ति, किन्तु यङ्ग्लुगन्तधातुः अनुदात्तेत् इत् ङित् स्वरितेत् इत् ङित् इत्येभ्यः भिन्नः इति कारणतः शेषात् कर्तरि परस्मैपदम् इत्यनेन परस्मैपदिपदसंज्ञकप्रत्ययाः एव विधीयन्ते इति अस्ति करपत्रे.
हा ङित्वं किमर्थं न मन्यते अस्माभिः इति प्रश्नः. तत्र यङ् इति अस्य लूक् जातं, किन्तु प्रत्ययलक्षणं किमर्थं न भवति इति. अस्तु भवतु नाम अहं पृच्छामि, पुनः पृच्छामि. हा गोपाल महोदय,
अत्र यङ् प्रत्ययः तत्र आरभ्य यङ् प्रत्ययः ङित् अतः आत्मनेपदि दातु
आम्
आत्मनेपदिधातूनाम् अदन्ताङ्गानां सिद्धतिङ्प्रत्ययाः लटि सिद्धप्रत्ययाः ते इते अन्ते से इथे द्वे ए वहे महे
कुत्र अस्ति भवान् कुत्र पठति यङ् प्रत्ययः कुत्र पठति तत्र यत्र
अस्तु महोदय यङ् प्रत्ययः ङित् अतः सर्वे यगन्तदातवः आत्मनेपदिनः सर्वे यगन्तदातवः च अदन्ताः अतः प्रथमगणसमूहस्य तिङ्प्रत्ययाः विधीयन्ते तस्माच्च तिङ्प्रत्ययसंयोजनं सुलभम् अस्माकं प्रमुखकार्यम् अत्र धातोः साधनं यगन्तधातुसाधनमेव आर्धधातुकप्रक्रियान्तर्गतं ततः अग्रे तिङन्तनिर्माणं सार्वधातुकप्रक्रियानुसारि आम् इदानीमेव चर्चा जाता यत्र यङ् प्रत्ययः ङित् अतः सर्वे यगन्तदातवः आत्मनेपदिनः इति चर्चा जाता अपि च ते सर्वे यकारः अदन्तदातवः भविष्यन्ति तस्मात् प्रथमगणसमूहस्य यदा वयं तिङ्प्रत्ययनिर्माणं कृतवन्तः तदेव अत्रैव तिङ्प्रत्ययाः विधीयन्ते
प्रथमगणसमूहः इत्युक्ते कः इति स्मर्यते वा
आम् अदन्त यत्र प्रथम अकारान्त अकारान्तधातूनाम् अपि च तथैव सर्वे अकारान् अच् वर्णधातुः दातवः
न न अत्र तथा नास्ति नाम अर्धभागः
महोदय तत्र भुवादिगणे अपि च भुवादिगणे दिवादिगणे भुवादि अदादि दिवादि
न अदादि न भुवादौ भुवादिगणः दिवादिगणः
सुदादिगणः
भुवादिगणः दिवादिगणः चुरादिगणः चुरादिगणः
चुरादिगणः चतुर्णाम् एव
चतुर्णां किं
तत् ते सर्वे अदन्ताः सन्ति
सर्वे 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 नाम किं दातवः
न दातवः न सर्वे विकरणप्रत्यय यत्र विकरणप्रत्यय विकरणप्रत्ययः अस्ति ते सर्वे अदन्ताः भवन्ति तस्मात्
अङ्गम् अङ्गं हा बहु सम्यक् अस्ति बहु सम्यक् अस्ति महोदय तत्र अङ्गमदन्तम् अस्ति खलु नाम विकरणस्य संयोजनानन्तरं यत् अङ्गं निष्पन्नं तत् अदन्तम् इति कृत्वा
अदन्तं ते सर्वे अदन्ताङ्गानाम् अत्र यङ् यङन्ति
इति कृत्वा कश्चन तत्र प्रथमगणसमूहः इति उच्यते प्रथमगणसमूहः द्वितीयगणसमूहः तत्र मातृभिः विभजनं साधितमस्ति बहु तत्र उपयोगी अस्ति तत्र चतुर्षु गणेषु यानि अङ्गानि निष्पन्नानि तेभ्यः ये तिङ्प्रत्ययाः विधीयन्ते ते
तदेव
तत्र एकप्रकारकाः सन्ति तिङ्प्रत्ययाः पुनः तत्र षट् इति अवशिष्टधातुगणाः सन्ति तत्र अङ्गमदन्तं नास्ति इति कृत्वा किञ्चित् कश्चन भेदः अस्ति तिङ्प्रत्ययेषु कुत्रचित् भेदः अस्ति कृत्वा तिङ्प्रत्ययाः भिन्नाः सन्ति अत्र अङ्गमदन्तमस्ति चेत् तिङ्प्रत्ययः एकरीत्या पुनः द्वितीयगणसमूहः अस्ति अदादिगणे ज्योत्यादिगणे तत्र षड् गणाः सन्ति
स्वादिगणे अपि च रुदादितनादि
तत्र तिङ्प्रत्ययः किञ्चित् भिन्नाः सन्ति इति कृत्वा अत्र प्रथमगणसमूहस्य तिङ्प्रत्ययाः विधीयन्ते न तु द्वितीयगणसमूहस्य गणसमूहस्य
द्वितीयगणसमूहे महोदय सर्वे अङ्गाः अनुगन्ताः खलु
इति एव अस्ति इति वार्ता अस्ति
इति तदेव
इति कारणतः तिङ्प्रत्ययाः किञ्चित् भिन्नाः सन्ति कुत्रचित् आधिक्येन साम्यं कुत्रचित् भेदाः इति अस्माभिः दृष्टम्
यगन्तधातुसाधनम् एव यत्र अदन्तधातु प्रथमगणसमूहस्य तदेव अत्रापि विधीयते ततः अग्रे तिङन्तनिर्माणं सार्वधातुकप्रक्रिया अनुसारि अदन्तं यदा सार्वधातुक
न भवान् पठति अग्रे पठति किन्तु किमपि न वदति तस्मात् च तिङ्प्रत्ययसंयोजनं सुलभं सुलभं किमर्थं तत्र अङ्गमदन्तमस्ति तत्र कार्यं न्यूनमस्ति कुत्रचिदेव तत्र अङ्गकार्यमस्ति कुत्रचित् सरलरीत्या सन्धिकार्यमस्ति अधिकं नास्ति इति अस्माभिः तत्र यथा भुवादिगणे अस्ति दिवादिगणे अत्रापि तथा नाम तत्र अङ्गसिद्धतिङ्प्रत्ययोः संयोजनं सुलभमस्ति किन्तु अत्र तथा नासीत् यङ्लुकि. यङ्लुकि तथा नासीत् यत् अङ्गमदन्तं नास्ति इति कृत्वा अस्माकं प्रचुररूपेण तत्र कति मासाः तत्र मासाः स्वीकृताः अस्य अभ्यासार्थं यत् तत्र सन्धिकार्यं हल्सन्धिकार्यं बहु किमपि अस्माभिः साधितं खलु हल्सन्धिकार्यम् अत्र किमपि नास्ति तथा अङ्गमदन्तमस्ति इति कृत्वा अस्माकं प्रमुखकार्यं धातोः साधनं. तत्र यङन्तधातुसाधनम् एव आर्धदातुकप्रक्रिया प्रक्रियान्तर्गतम् इत्युक्ते किम्
साधनं तत्र तिंशित् नास्ति तस्मात् आर्धधातुकप्रक्रिया यत्र प्रकारः तत् तदेव
किं तिंशित् नास्ति
यङ् प्रत्ययः तिङ् अपि नास्ति षित् अपि नास्ति तस्मात् आर्धधातुकप्रक्रियान्तर्गतं यदा आर्धधातुकप्रक्रिया प्रक्रिया भवति तदेव यगन्तधातुसाधनमपि आर्धधातुकप्रक्रिया रूपेण भवति. तदनन्तरमेव तिगन्तनिर्माणं तिगन्तम् इत्युक्ते तत्र कर्तरी शाप् अथवा किं भवति ते सर्वे तिगन्तरू सार्वधातुकप्रक्रिया एव
अत्र संयोजनीयमस्ति. ततः अग्रे लटि लोटि लङि विधि लिङि इति चतुर्षु स्थलेषु तिङन्तर्निर्माणं तत्र सार्वधातुकप्रक्रिया
सार्धधातुकप्रक्रिया या तदेव अन्यत्र आर्धधातुक प्रक्रिया यथा विधिलिङ् अशीर्लिङ् तत्र भिन्नरीत्या अशीर्लिङि अन्यत् लटि कुत्रापि आर्धधातुकप्रक्रिया भवति. चतुर्षु लकारेषु लटि लङि लोटि विधिलिङि तत्र सार्वधातुकप्रक्रियानुसारि इति.
हा 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 अस्तु बहु समीचीनमस्ति. हेमा भगिनी अग्रे.
अग्रे अस्ति आत्मनेपदि धातूनाम् अदन्तङ्गानां सिद्धतिङ्प्रत्ययाः. वयं जानीमः लटि सिद्धप्रत्ययाः ते इते अन्ते से इथे द्वे ए वहे महे इति. तदनन्तरं लोटि सिद्धप्रत्ययाः ताम् इताम् अन्तां स्व इथां ध्वम् ऐ आवहै आमहे. लङि सिद्धप्रत्ययाः त इताम् अन्त थाः इथां ध्वम् इ वहि महि. विधिलिङ्गि सिद्धप्रत्ययाः ईत ईयाताम् ईरन् ईथाः ईयाथाम् ईध्वम् ईय ईवहि ईमहि. उपरितनाः सर्वे तिङ्प्रत्ययाः सार्वधातुकसंज्ञकाः कर्तृकश्च.
अस्तु अस्तु उच्यताम् उच्यताम्.
अत्र वयं पूर्वं मूलतिङ्प्रत्ययतः सिद्धतिङ्प्रत्ययः साधितं तेषाम् अत्र रूपाणि दत्तं लड्डि लटि ते इति अन्ते सर्वे आत्मनेपदिन रूपाणि सिद्धतिङ्प्रत्ययाः सन्ति चतुर्षु लकारेषु ये
सार्वधातुकत्र अङ्गमदन्तमस्ति खलु अदन्तमस्ति. अत्र अस्माकं परिचिताः सिद्धतिङ्प्रत्ययाः भुवादिगणे दिवादिगणे तुदादिगणे चुरादिगणे.
अत्र लटि तत्र बहुवचने अत्र अभ्यस्तसंज्ञा अस्ति इति तत्र अते इति न भवति वा?
अते इति तत्र यद्यपि तत्र अते इति एव भवेत् अते इति एव भवेत् यत् तत्र आरम्भे मया लिखितमासीत् यत् जुहोतियादिगणे यथा भवन्ति अत्र शीघ्रं साध नाम संयोजितमासीत् इति कृत्वा किन्तु जुहोतियादिगणे यथा भवन्ति अत्र कुत्रचित् एव भेदः अस्ति द्वित्वम् अस्ति इति कृत्वा सत्यं
अस्तु महोदय.
हा तत् आरम्भे मया संयोजितमासीत् किन्तु अत्र न समीकृतमासीत्. अन्ते अति
लोटि अपि
लोटि तत्रैव तत्रैव अस्ति तत्रैव अस्ति. अस्तु समीचीनमस्ति, धन्यवादः. अग्रे अनन्तकृष्णः अग्रे महोदय अस्ति. न श्रूयते. हरि ओम् महोदय, न श्रूयते. हरि ओम् अस्ति वा?
सम्यक्तया न श्रूयते.
हा हा अस्तु. अन्य कोऽपि पठतु कृपया. बालसुब्रह्मण्य तत् पठतु कृपया.
उपरितनाः सर्वे तिङ् प्रत्ययाः सर्वधातुकसंज्ञकाः कर्तृत्वकाश्च. अस्यां दशायां धातुभ्यः सप्रत्ययः विधीयते. उदाहरणरूपम् एकं वदामि महोदय.
सूत्रं किं?
सूत्रमिति कर्तरि शप् धातुतः सप्रत्ययः भवति कर्तृस्थक सार्वधातुकप्रत्यये परे.
अनुवृत्तिसहितसूत्रं
धातोः सप्रत्ययः परश्च कर्तरि सार्वधातुके.
इत्युक्ते किम्?
इत्युक्ते तिप्रत्ययः सार्वधातुक कर्तृक सप्रत्ययः एव विद्यते. सो सप्रत्ययः परश्च धातोः सार्वधातुककर्तरिरूपमेव.
नाम सार्वधातुकसंज्ञकाः कर्तृकाः इति के 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 तादृशाः सन्ति? के हा वदति वा? सार्वधातुकसंज्ञा अत्र मूलं तथैव अस्ति. तदेव सार्वधातुकसंज्ञकाः कर्तृकाः इति के?
यङन्त
अङ्गः न यङन्तरूपमिति न इति न यङन्तदातुः इति तथा अस्ति इति नास्ति. अत्र तत्र वेङ्कटेशमहोदय वदति वा?
आं महोदय, अत्र तिङ्क्षित् सार्वधातुकम् इति ये प्रत्ययाः तिङ्क्षित् अस्ति तिङ् अस्ति कर्तरि षप् अत्र आगत्य कार्यं करोति. धातोः षप् प्रत्ययः परश्च कर्तरि सार्वधातुके. ये तिङ्क्षित् प्रत्ययाः सार्वधातुकः अस्ति
न केवलं सार्वधातुकः अपि तु तिङ्प्रत्ययः तत्र सार्वधातुकसंज्ञकाः अपि च कर्त्रार्थकाः. कर्मणि अर्थे न स्युः. सार्वधातुकसंज्ञकाः अपि च कर्त्रार्थकाः इति कृत्वा तिङ्प्रत्ययः विधीयते. यथा भुवादिगणे भुवादिगणे तत्र कर्मणि प्रयोगे तत्र शप् इति नास्ति. यक् भवति न तु शप्. अस्तु समीचीनमस्ति. तर्हि अग्रे गच्छेम. इदानीम् अग्रे विद्याभगिनी अग्रे यथा
यथा देदीययोगः ते कर्तरि शप् इत्यनेन धातुतः शप् प्रत्ययः भवति कर्त्रार्थक सार्वधातुकप्रत्यये परे. देदीययोगः शप् योगः ते देदीययोगः अयोगः ते श अनन्तरम् अतो गुणे इत्यनेन पूर्वपरयोः स्थाने एकः पररूपम् एकादेशः देदीययोगः ते देदीयते. तर्हि अत्र दी इति धातुः प्रायः दि इति धातुः तत्र यङन्तधातुः देदीय इति धातुः तत्र देदीय
दा इति धातुः
दा इति नास्ति दा अस्ति चेत् तत्र दादा इति भवति
दो दो इति दाति अहं दो
न न दा इति धातु दीय इति गुमास्ता
अत्र अस्माकं बहु कानि कार्य अत्र दाति एव अस्ति
तर्हि तत्र अभ्यासे दे इति कथं दू इति
भवतु नाम अत्र अत्र चिन्तनं तादृशं न केवलम् उदाहरणरीत्या दीयते अत्र यङन्तदातुः अस्ति दे दीय प्रदर्शनार्थं यद् यद् भुवादिगणे यथा दिवादिगणे यथा अत्रापि तथा भुवादिगणे इति स्वीकुर्मः यतो हि शप्
अस्तु तर्हि दे दीय इति प्रायः दा इति धातुः दे दीय योगः ते इति आत्मनेपदप्रत्ययः तत्र कर्त्रार्थक सार्वधातुकप्रत्ययः इति कृत्वा तत्र कर्त्री शप् इत्यनेन धातोः अनन्तरं धातुतः शप् इति प्रत्ययः भवति तर्हि देदीय योगः शप् योगः ते तत्र शप् इत्यस्मिन् अनुबन्धलोपानन्तरम् अ एव अवशिष्यते तर्हि देदीय योगः अयोगः ते इदानीं तत्र देदीय इति अदन्त अङ्गम् अनन्तरम् अकारः अस्ति तर्हि अत्र अतो गुणे इति सूत्रेण अतो गुणे इति सूत्रं वदति अपदान्तात् अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपम् एकादेशः स्यात् तर्हि अत्र देदीय इति अपदान्त अकारः अस्ति अनन्तरं तत्र अकारः गुणसंज्ञकः वर्णः इति कृत्वा पूर्वपरयोः पररूपम् एकादेशः तर्हि तत्र देदीय योगः ते देदीयते इति रूपम्
अत्र आद् आद्गुणः इति किमर्थम् अदेङ्गुणः इति किमर्थं प्रदर्शितमस्ति
कुत्र महोदय अग्रे
अदेङ्गुणः इति सूत्रमस्ति खलु अतो गुणे अनन्तरम् अदेङ्गुणः
अदेङ्गुणः अत्र अदेङ्गुणः ह्रस्वकारः एकारः ओकारः एषां वर्णानां गुणसंज्ञा स्यात् अत्र गुणसंज्ञकः वर्णः के इति प्रदर्शनार्थं तत्र तत्र अतो गुणे इति सूत्रे गुणे इति अस्ति तर्हि के के वर्णाः गुणसंज्ञकाः इति प्रदर्शनार्थम् अदेङ्गुणः इति संज्ञासूत्रं तत्र दत्तमस्ति
हा इति कृत्वा यथा भुवादिगणे अस्ति अत्रापि तथा अतो गुणे इति तेषु दिनेषु अस्माभिः परिशीलितमासीत् अतो गुणे अपदान्तात् अतः गुणे परे अत्र अतः नाम ह्रस्व देदीय इति ह्रस्वकारः अस्ति देदीय अ ततः अग्रे शप् अस्ति इति कृत्वा देदीय योगः अ अ अ अ इत्यस्य गुणसंज्ञा अस्ति अतः अतो गुणे इत्यनेन पूर्वपरयोः स्थाने एकः पररूपम् एकादेशः इति कृत्वा देदीयते देदीयते अस्तु
अत्र अकः सवर्णे दीर्घः इत्यस्य अपवादः वा अतो गुणे
हा इति दीर्घमस्ति किम् इदं सूत्रम्
इदं सूत्रं वृत्तिरेचि अकः सवर्णे दीर्घः इत्यनयोः अपवादसूत्रम्
तत्र वारुणातन्त्रं बलीयः इति उच्यते किल अङ्गकार्यं तस्मात् कारणात्
न अत्र अङ्गकार्यमिति नास्ति अतो गुणे इति वर्णनिमित्तं कार्यमस्ति सर्वमस्ति वृद्धिरेचि अकाशवर्णदीर्घः अपि च अतो गुणे अत्र चिन्तनं सम्यक् आसीत् किन्तु अत्र अङ्गकार्यं नास्ति अत्र केवलम् अपवादः अस्ति नाम अत्र अकाशवर्णदीर्घः अपि च वृद्धिरेचि इति द्वयोः कार्यं यत्र यत्र प्रसङ्गः तत्र तत् अतो गुणे इति निरवकाशं भवति इति अस्ति वर्णनिरीक्षणं कार्यमस्ति किन्तु
अस्तु
हा अपवादसूत्रमस्ति अस्तु तर्हि चन्द्रशेखर महोदय प्रदर्शयतु लटि यथा भुवादिगणे अस्ति अत्र अन्ततो गत्वा रूपाणि
अस्तु अत्र देदीय ते इति प्रदर्शितमासीत् इदानीं देदी
अग्रे किं लिखितमस्ति लटि लोटि
लटि लोटि केवलं रूपं पठामि वा रूपं प्रदर्शयामि लटि लोटि यङ् लङि विधिलिङ्गि च सर्वेषां
यङन्तधातूनां तिङन्तरूपाणि एतादृशानि लटि देदीयते देदीयेते देदी अत्र देदीयते इति भवेत् वा देदीयन्ते वा आम् देदीयन्ते देदीयते
द्रष्टव्यमस्ति अत्र दे अत्र तत्र मम इदानीं भ्रमः अस्ति यतोहि द्वित्वमस्ति इति कृत्वा नकारः न स्यात् किन्तु हा न स्यात्
न महोदय परन्तु तत्र अकारान्तधातुः खलु देदीयन्ते इति एव भुवादिगण इव इति उक्तं भवान्
हा द्रष्टव्यमस्ति यतोहि द्वित्वं भवति चेत् तत्र किञ्चित् वैशिष्ट्यमस्ति अभ्यस्त अङ्गम् अभ्यस्तमस्ति चेत् तत्र किञ्चित् द्रष्टव्यमस्ति द्रष्टव्य इदानीं परिशीलनमस्ति मम अपि कश्चन भ्रमः अस्ति यतोहि मातुः कथनम् एव एव अस्ति यद् दीयते दीयेते दीयन्ते तत्र नकारः मातृभिः उक्तमासीत् इति कृत्वा यद्यपि अभ्यस्तसंज्ञा अस्ति द्रष्टव्यमस्ति नकारः भवति न वा पठितमस्ति उक्तमस्ति मातृभिः इति कृत्वा पठतु एकवारम्
अनन्तरं अत्र किम् अस्ति तदेव पठामि देदी देदीयते देदीयेते देदीयन्ते देदीयसे देदीयथे देदीयध्वे
देदीयेथे
देदीयेथे देदीयध्वे देदीये देदीयावहे देदीयामहे लोटि देदीयतां देदीयेतां देदीयन्तां देदीयस्व देदीयेथां देदीयध्वं देदीयै देदीयावहै देदीयामहै लङि अदेदीयत अदेदीयेताम् अदेदीयन्त अदेदीयथाः अदेदीयेथाम् अदेदीयध्वम् अदेदीये अदेदीयावहि अदेदीयामहि विधिलिङ्गि देदीयते देदीयत देदीयेयातां देदीयेरन् देदीयेथाः देदीयेयाथां देदीयेध्वं देदीयेय देदीयेवहि देदीयेमहि तर्हि लटि लोटि लङि विधिलिङ्गि च सर्वेषां यङन्तधातूनां तिङन्तरूपाणि एतादृशानि अपरेषु षट्सु लकारेषु तत्तत्पाठे द्रष्टव्यं प्रत्येकस्मिन् पाठे तस्य लकारस्य यङन्तरूपं कथं सिद्ध्यति इति प्रदर्श्यते
अस्तु बहु समीचीनमस्ति नाम अत्र द्रष्टव्यमस्ति नकारः भवति न वा वस्तुतः तत्र यत्र अभ्यस्तसंज्ञा अस्ति इति कृत्वा तत्सर्वं तत्र अनदन्तं वा इति द्रष्टव्यमस्ति इदानीं पुनः यतोहि भवतु
प्रायः यङ् धातुः प्रथमवारम् अस्ति यत्र अदन्तमपि अस्ति द्वित्वमपि अस्ति खलु
किं वदति भवान् यङ् अत्र अयं बिन्दुः इदानीं मास्तु अहं दृष्ट्वा वदामि अतः अनन्तरं किन्तु अत्र किमस्ति केवलं वक्तुम् इष्टवान् अत्र यत् अस्माकं सम्पूर्णरीत्या चिन्तनं कार्यमभ्यासः च अस्मिन् पाठे भविष्यति धातोः साधनार्थं न तु तिङन्तस्य साधनार्थम् अत्र उदाहरणं दत्तमस्ति प्रदर्शनार्थं यत् अत्र किमपि नास्ति यथा भुवादिगणे अत्रापि तथा भुवादिगणे ये आत्मनिपदे दातवः सन्ति तेषां तिङन्तरूपाणि कथं भवति इति अत्र नाम यथावत् अस्ति कार्यं नूतनं किमपि नास्ति इति कृत्वा तद् नापेक्षितमस्ति कि आरम्भे एव प्रदर्शनमस्ति इतः अग्रे धातोः साधनमिति अग्रे यङन्तप्रक्रिया अस्ति अस्माकं सम्पूर्णरीत्या कार्यम् अत्र अस्ति एकवारं यदा अनन्तं तत्र अङ्गं धातुः साधनमस्ति अनन्तरं शप् इत्यादिकं भवति अत्र नूतनं किमपि नास्ति नूतनं किं यङन्तधातुप्रक्रिया इति नूतना ततः अग्रे करिष्यामः
महोदय तत्र अन्यत् च यङो अचि इति सूत्रस्य व्याख्याने सिद्धान्तकौमुद्यां तत् व्याख्यातं वर्तते किमर्थं तत्र ङित्वस्य प्रत्ययलक्षणं न भवति इति तत्र दत्तमस्ति
किमुच्यते तत्र लिखितमस्ति
आम् तत्र किं लिखितम् इत्युक्ते ङित्वस्य प्रत्यय अप्रत्ययसाधारणत्वेन प्रत्ययलक्षण अप्रवृत्तेः इति उक्तमस्ति. नाम तत्र ङित्वं प्रत्ययपि भवति अप्रत्ययपि अपि ङित् भवति इति कृत्वा तत्र साधारणम् अस्ति इति कृत्वा यत्र यत्र साधारणं तत्र ङित्वं साधारणं वर्तते तत्र तत्र प्रत्ययलक्षणं न भवति इति अभिप्रेतं वर्तते. प्रत्ययम् अस्ति अत्र उदाहरणम् अत्र अन्यत् अपि दत्तं किं दत्तमस्ति इत्युक्ते अन्यत्रापि यङ् भवति धातुमध्ये अथवा अन्यत्र अङ्गमध्ये कुत्रापि भवति इति दत्तमस्ति इति मन्ये. इदानीम् अहं केवलं व्याख्यानमेव दृष्टवान्, व्याख्याने तु तत् उदाहरणं न दत्तं, परन्तु प्रत्यये अपि ङित् भवति अप्रत्यये अपि ङित् भवति इति अभिप्रेतं वर्तते.
अप्रत्यये अपि ङित् भवति इति कृत्वा तत्र तर्हि आत्मनिपदम् इति भवति स्म.
आं नाम तत्र किं वदति इत्युक्ते प्रत्यय प्रत्यय लोपे प्रत्ययलक्षणं तत्रैव प्रवर्तते यत्र तस्य निमित्तं यदस्ति तत् साधारणं न भवेत्.
ओ साधारणं न भवेत्.
साधारणं न भवेत्. आम्
अत्र साधारणम्
अत्र साधारणम् इति कृत्वा तत्र प्रत्ययलोपे प्रत्ययलक्षणं न भवति इति उक्तम्.
साधारणम् इत्युक्ते
साधारण नाम प्रत्यये अपि भवति अप्रत्यये अपि भवति ङित्. नाम यङ् अस्ति अत्र प्रत्यये भवति अन्यत्र कुत्रापि चक्षिङ्ख्याय उदाहरणरूपेण वदामः तत्र चक्षिङ् अस्ति तत्र ङकारस्य इति संज्ञा परन्तु तत् प्रत्यये नास्ति चक्षिङ् इति प्रत्यये नास्ति. तर्हि ङित्वं प्रत्यये अपि अस्ति अत्र यङ् मध्ये अप्रत्यये चक्षिङ्ख्याय इत्यत्रापि अस्ति इति कृत्वा ङित्वस्य साधारणत्वं तत्र यत्र यत्र साधारणत्वं तत्र तत्र प्रत्ययलोक्षे प्रत्ययलक्षणत्वं न भवति इति उक्तम्.
हा अत्र धातुसंज्ञाविधायकसूत्रे उक्तमस्ति
अहं तत्र यङो अचि च इति सूत्रस्य व्याख्याने तद् दत्तमस्ति महोदय.
यङो अचि च अस्तु तत्र पश्यामि. अस्तु बहु समीचीनमस्ति, धन्यवादः महोदय. तर्हि समयः जातः, धन्यवादस्सर्वेषाम्. इतः अग्रे नाम धातोः साधनार्थं या प्रक्रिया अस्ति तस्मिन् एव निमग्नः भवेम, निमग्नाः. अस्तु, धन्यवादः सर्वेषां, नमस्कारः.
धन्यवादः महोदय.